त्यक्तं येन फलं सकर्म कुरुते नेति प्रतिमो वयं किं त्वस्यापि कुतोऽपि किञ्चिदपि तत् कर्मावशेनापतेत् तस्मिन्नापतिते त्वकम्प परम ज्ञानस्वभावे स्थितो ज्ञानी किं कुरुतेथ किं न कुरुते कर्मेति जानाति कः।